बाह्यार्थग्रहणस्वभावभरतो विश्वग्विचित्रोल्लसज ज्ञेयाकार विशीर्ण शक्तिरभितस् त्रुट्यन् पशुर्नश्यति एकद्रव्यतया सदाप्युदितया भेदभ्रमं ध्वंसयन्नेकं ज्ञानमबाधितानुभवनं पश्यत्यनेकान्तवित्।